कमप्याद्यं गुरुं वन्दे कमलागृहमेधिनं प्रवक्ताश्चन्दसां वक्ता पञ्चतन्त्रस्य यस्वयं सहधर्मचरीं शौरेः सम्मन्त्रितजगद्धिताम् अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहां वन्दे वैकुण्ठसेनान्यं देवं सूत्रवती सखम् यद्वेत्रशिखरस्पन्दे विश्वमेधाद्यवस्थितम् यस्य सारस्वतं श्रोतो वगुणा मोदमासितं श्रुतीनां विश्रमायालं चठारीं तमुपास्महे नाथेन मुनिना तेन भवीयं नाथवानहं यस्य नैकमिकं तं त्वं हस्तामलगतां गतम्।